आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झाः। अथ वार्ताः। प्रधानमन्त्रिणः नरेन्द्रमोदिनः एक्स इति सामाजिक अन्तर्जाल पटले अनुयायिनां संख्या 10 कोटितोप्यधिका सञ्जाता। अवधेयमस्ति यत् विगत त्रिवर्षेषु प्रायः 3 कोटिः वृद्धिः अभवत्। सम्प्रति श्रीमोदिनः अधुना विश्वस्य नेतृषु सर्वाधिकाः अनुयायिनः सन्ति। केन्द्रीय गृहमन्त्रेण अमितशाहेन मध्यप्रदेशस्य सर्वेष्वपि 55 जनपदेषु प्रधानमन्त्री उत्कृष्ट महाविद्यालयानाम् उद्घाटनं कृतम्। श्रीशाहः अवोचत् यत् नूतन शिक्षानीतेः उद्देश्यं यूनः विकसित भारताय सज्जीकरणम् अस्ति। श्रीमोदिना आगामि 25 वर्षाणाम् आवश्यकता सम्पूर्तये नूतन शिक्षानीतिम् आनेतुं कार्यं कृतम्। अनया नूतन शिक्षानीत्या भारतस्य छात्राः विश्वस्य छात्रैः सह स्पर्धां कर्तुं समर्थाः भविष्यन्ति। अपरञ्च अस्मदीयाः छात्राः सहस्रवर्ष पुरातन संस्कृत्या सह भाषाभिः सह सम्बद्धाः भवेयुः। गृहमन्त्रिणा प्रोक्तं यत् प्रधानमन्त्री उत्कृष्ट महाविद्यालयानां स्थापनायाः उपक्रमस्य उद्देश्यं प्रदेशस्य छात्राणां कृते उत्तमं उच्च गुणवत्तायुक्तं च शिक्षाप्रदानं वर्तते। सः नूतन शिक्षानीतेः सर्वप्रथमं कार्यान्वयनार्थं हिन्दीभाषायां चिकित्सा अभियन्त्रण शास्त्रयोः पाठनम् आरम्भार्थं मध्यप्रदेश प्रशासनस्य प्रशंसाम् अकरोत्। इतः प्राक् गृहमन्त्रिणा इन्दौर जनपदे एक पेड़ मा के नाम इत्यस्याभियानस्य समारम्भः अकारी। इन्दौर जनपद द्वारा एकस्मिन्नेव दिवसे 11 लक्ष वृक्षाणां रोपणं कृत्वा वैश्विक कीर्तिमतः स्थापना करिष्यते। लोकसभाध्यक्षः ओम बिड़ला रूसदेशस्य मॉस्को नगरे भारतीय प्रवासिनः सम्बोधयन् सबलं प्रोक्तवान् यत् विदेशस्थाः भारतीयाः भारतस्य विकासाय तस्याधुनिकीकरणाय च अभिन्नाः भागधेयाः सन्ति। तेन राष्ट्रनिर्माणे निरतान् प्रवासिनः प्रति कार्तज्ञभावान् प्रकटयता प्रोक्तं यत् एते प्रवासिनः रूसदेशे भारतस्य राजदूतरूपेण स्थित्वा स्वकार्याचरणैः योगदानादिभिश्च रूसे भारतस्य छविं सम्मार्जयन्तः सन्तीति। रामचन्द्र पौडलेन नेपालस्य अग्रिम प्रधानमन्त्रित्वेन केपी शर्मा ओली नियुक्तः। असौ पुष्पकमलदहल प्रचण्डस्य स्थानम् अवाप्स्यति। श्री प्रचण्डस्य शुक्रवासरे प्रतिनिधिसभायां विश्वासमतस्य पराजयानन्तरं नूतन प्रशासनं निर्मितं भवति। अद्य ओली शपथग्रहणं विधास्यति। न्यायं यावत् पूर्णतः प्रापणाय नवोन्मेषी समाधान प्रारूपाय च दिशा इत्याख्यः कार्यक्रमः अस्य मासस्य 16 दिनांके प्रयागराजनगरे भविष्यति। कार्यक्रमोऽयं भारतीय संविधानस्य स्वीकरणाय भारतीय गणतन्त्रस्य 75 वर्ष पूर्तावधौ उत्सवेन परिपाल्यते। अभियानस्यास्य उद्देश्यं वर्तते यत् संविधानाभिज्ञानस्य वरिवर्धनेन सह न्यायाधिकारेषु अभिरुच्यभिवर्धनं चेति। आयोजनकाले नागरिकाणां सहयोगाभिवर्धनाय हमारा संविधान हमारा सम्मान इत्याख्यं वेबफलकमपि अस्ति समुद्घटितम्। अथ क्रीडावार्तासु। क्रिकेट प्रतिस्पर्धायां भारतीय दलेन जिम्बाब्वे दलं 4-1 इत्यंकान्तरालेन पराजितम्। इयं श्रृंखला T20 क्रीडायाः अन्तिमा च आसीत् यत्र भारतेन 42 अंकैः विजयम् अवाप्तम्। इति वार्ताः।